विद्यारंभं करिष्यामि सिद्धिर् भवतु मे सदा। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा। ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्। तस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम्। वन्दे संस्कृतमातरम्। अद्य वयं षष्ठीतम श्लोकात् आरभ्य केषाञ्चन श्लोकानां भावार्थम् अन्यान् केचन विषयान् पश्यामः। नवपञ्चाशत् तमश्लोकपर्यन्तं किम् आसीत् इति संक्षेपेण पुनस्मारणं कुर्मः। अथर्वनिधेः तस्य विचितारिपुरः पुरः अर्थपतिः वाचम् आददे वदतां वरः। वसिष्ठस्य पुरतः दिलीपः वचनम् आरब्धवान्, स्वस्य कथनम् आरब्धवान्। सः गुरोः पुरतः किं यत् निवेदयितुम् इष्टवान् तत् आरब्धवान् इत्येव अत्र श्लोकस्य भावार्थः। कीदृशः सः दिलीपः इत्युक्ते विजितारिपुरः, शत्रूणां पुराणाम् उपरि यः जयं प्राप्तवान् सः। गुरोः पुरः, गुरोः पुरतः अर्थपतिः, अर्थानां पतिः, अर्थपतिः सर्वविध पतिः सः। अर्थ्यां वाचम् अर्थयुक्तां वाचम् अर्थयुक्ता वाक् अर्थयुक्तां वाचम् आददे तत् चिन्तितवान्, वक्तुम् आरब्धवान्, उपक्रान्तवान् इति एव अर्थः। किं वक्तुम् आरब्धवान्, किम् उक्तवान् इति षष्ठीतमे श्लोके। दिलीपः अत्र पञ्चश्लोकैः राज्यं कथम् अस्ति, कस्य आशीर्वादेन, दिलीपस्य वसिष्ठस्य आशीर्वादेन राज्यस्य स्थितिः कथमस्ति इति वक्तुम् आरब्धवान्। हरि ओम्। अस्तु। उपपन्नं ननु शिवम् सप्तस्वङ्गेषु यस्य मे दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्। पुनरेकवारं श्लोकं मिलित्वा पठामः। उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे नां मानुषीणां च प्रतिहर्ता त्वमापदाम्। पदच्छेदः एवं भवति, उपपन्नं ननु शिवं सप्तसु अङ्गेषु यस्य मे दैवीनां मानुषीणां च त्वम् आपदाम्। सरलार्थः अस्ति. दिलीपः वदति वसिष्ठमुनेः ततः पूर्वं प्रश्नः आसीत् सर्वं कुशलं वा. तस्य प्रश्नः एवम् आसीत् पप्रच्छ कुशलं राज्ये राज्याश्रमं किं मुनिः. राज्ये कुशलं वा इति प्रश्नस्य सप्त उत्तराणि भवितुम् अर्हन्ति. नाम राज्ये कुशलं वा इति प्रश्ने सप्त प्रश्नाः अन्तर्भूताः. इत्युक्ते स्वामी, अमात्यः, पुरं, राष्ट्रं, कोशः, दण्डः, सुहृत् इति एतत् सर्वमपि कुशलं वा इति एव वसिष्ठस्य कथनस्य तात्पर्यम्. तद् दिलीपः तस्य उत्तरं कथयन् वदति सर्वमपि मम कुशलमेव भवति यतः मम सर्व निवारयिता हे गुरो त्वमसि किल इति वदति. अन्वये पश्यामः उपपन्नम् अस्ति. उपपन्नम् इत्युक्ते युक्तमेव उचितमेव किल. किम् उचितमस्ति? सर्वं शिवं. शिवं नाम भद्रं मङ्गलम्. कस्य? मे, मम. कुत्र उचितमस्ति? सप्तसु अङ्गेषु. प्रश्नस्य प्रश्नः आसीत् किं सर्वं कुशलं वा, राज्ये कुशलं वा इति प्रश्नः. किन्तु दिलीपः इदानीं वदति तस्य उत्तरं प्रश्नस्य आशयम् अवगत्य सप्तसु अङ्गेषु च मम उत्तमेव उचितमेव यत् सर्वं भद्रं सर्वं सुरक्षितम्. तस्य कारणं वदति यत् त्वं प्रतिहर्ता असि खलु हे गुरो त्वमेव प्रतिहर्ता प्रतिहरति निवारयति. केषां कासां प्रतिहर्ता? आपदां कष्टानां प्रतिहर्ता त्वं. कीदृश्यः आपदः? दैव्यः आपदः भवन्ति, मानुष्यः आपदः अपि भवन्ति. तात् भवाः दैवी आपदः आपत् भवति. मनुष्यात् भवा आपत् मानुषी आपत् भवति. तादृश आपदां प्रतिहर्ता त्वम् असि खलु, अतः मम सर्वं कुशलमेव इति वदति. अस्य भावार्थः सरलः एव. सा वदति हे गुरो. अन्वयं पश्यामः आदौ सप्तसु अङ्गेषु मे शिवम् उपपन्नं ननु यस्य मे दैवीनां च आपदां त्वं प्रतिहर्ता असि. असि इति अध्याहर्ता. सप्तसु अङ्गेषु शिवम् इत्युक्ते किं? सप्त अङ्गानि राज्यस्य. तदेव राज्ये कुशलं वा इति प्रश्नस्य अर्थः. सप्तसु अङ्गेषु अपि सर्वं कुशलं किम्? सप्त अङ्गानि कानि राज्यस्य? स्वामी, अमात्यः, सुहृत्, कोशः, राष्ट्रं, दुर्गं, बलम्. एतेषु सप्तसु अङ्गेषु एकम् अङ्गमपि दुर्बलं भवति चेत् राष्ट्रम्. अतः एव सप्त अङ्गानि अपि सशक्तानि भवेयुः. एतेषु सर्वेषु सप्तसु अङ्गेषु अपि राज्ञः अवधानं स्यात्. तदा एव राज्यं दृढं बलवत् अपि भवति राष्ट्रं. स्वामी, स्वामी नाम राजा. राजा एव सर्वस्य नियन्ता अस्ति वा, अथवा ज्ञानं विनापि यदि किमपि चलति तस्मिन् राज्ये प्रचलति तर्हि तद् अपायकरं भवति. अतः स्वामित्वं, स्वामी सम्पूर्णनियन्त्रणे स्थापितवान् अस्ति वा राज्यम् इति. अमात्यः, सचिवाः, मन्त्रिणः सर्वे अपि सुष्ठु कार्यं कुर्वन्ति वा, राज्ञः आज्ञापालनं कुर्वन्ति वा स्वतन्त्रतया, स्वेच्छया यदि ते कार्यं कुर्युः तर्हि तदुचितं न। अनुमतिं प्राप्य मन्त्रालोचनं कृत्वा ये नियमाः सन्ति राज्यस्य तान् नियमान् अनुसृत्य कार्यं कुर्वन्ति वा, विश्वासपात्राः पात्राणि सन्ति वा इति सर्वं। सुहृत् राज्ञः न केवलं स्वदेशे विदेशेषु अपि उत्तममित्राणि भवेयुः, तदा एव राज्यस्य पालनं भवितुमर्हति। सुहृत् कोशः धनं, राज्ञ राज्यस्य पालनार्थं कोशस्य कियती आवश्यकता इति वयं सम्यक् जानीमः। राष्ट्रं, राष्ट्रस्य विभिन्नप्रदेशाः सर्वे अपि परस्पर समन्वयेन कार्यं कुर्वन्ति वा इति। दुर्गं, दुर्गमेव किल राजधानी रक्षति, राजानं च रक्षति। दुर्गम् एव जितं चेत् शत्रुः दुर्गं प्रवेष्टुं न अर्हति, तथा एव दुर्गस्य निर्माणमपि कुर्वन्ति किल। अतः दुर्गं महत् बलं भवति राज्ञा। बलं नाम सैन्यबलं, गजबलं, विश्वबलं, पदातिबलम्, एतत् सर्वं, दण्डनीतिः, सर्वमपि बलं भवति राज्ञः। एतत् सर्वं मम, एतेषु सर्वेषु अपि विषयेषु मम यत् कुशलमस्ति तत् उपपन्नं ननु, तद् युक्तमेव उचितमेव खलु ननु एव। यतः कारणं किं वदति तत्र, किमर्थं न भवेत् मम कुशलं, यतः दैवीनां मानुषीणाम् आपदां प्रतिहर्ता त्वमसि। दैवी आपत्का, आगताः आपदः दैवी आपत् भवति, दैवी आप दैव्यः आपदः, मनुष्येभ्यः आगताः आपदः मानुष्यः आपदः भवति। दैवात् काः आपदः सम्भवेयुः, मनुष्यात् काः आपदः सम्भवेयुः इति तत्र श्लोकः अस्ति। मनुष्यात् दैवात् याः आपदः भवन्ति, सामान्यतया वयं पश्यामः वने एव अग्निः भवति, अग्निः प्रसरति बहु निर्बाधं प्रसरति, तस्य शमनमपि कर्तुं न शक्यते। जलकष्टं भवति, अतिवृष्टिः भवति, अनावृष्टिः भवति, व्याधिः भवति, दुर्भिक्षं भवति, जनानां कस्माच्चित् कारणात् मरणं भवति। एतादृश आपदः दैवी, दैव्यः आपदः अथवा दैवं व्यसनम् इति वदति। अत्र श्लोके अस्ति हुताशनः, जलं, व्याधिः, दुर्भिक्षं, मरणं तथा इति पञ्चविधं दैवं मानुषं व्यसनं ततः। हुताशनः नाम अग्निः, अनन्तरं जलं, जलस्य कथम् इत्युक्ते अतिवृष्टिः, अनावृष्टिः, जल अभावादपि कष्टम्, अधिक जलस्य आधिक्यं भवति चेदपि क्लेशः एव। व्याधिः वयं जानीमः, दुर्भिक्षं, वृष्टेः अभावात् यदा धान्यानां न भवति तदा दुर्भिक्षं भवति, ततः अपि मरणं, व्याधेः कारणादपि मरणं भवति। एतैः कारणैः एव एताः देवात् भवाः किल, अतः दैव्यः आपदः, मनुष्यस्य नियन्त्रणे नास्ति एतत् सर्वं, प्रकृतेः प्रकोपाः। तर्हि मनुष्यस्य पक्षतः काः आपदः भवति प्रजानां, काः आपदः भवन्ति आयुक्तकेभ्यः भवति। आयुक्तकाः नाम न्यायालये अभियोगः भवति, पुनः पुनः न्यायालयं प्रति गन्तव्यं, धनस्य व्ययः, तद् कस्य पक्षे भवति, बलवत्तः पक्षे एव सामान्यतया न्यायः भवति इति लोके तथा अस्ति। अतः यः किञ्चित् दुर्बलः अस्ति तस्य सर्वदा भयं, यद्यपि न्यायं कस्य पक्षे किन्तु जयः मम भवति वा न वा, मम धनबलं नास्ति, अथवा मम वरिष्ठपरिचिताः अधिकारिणः मम पक्षे न सन्ति इति भीत्या सः मम न्यायं न्यायः मया प्राप्यते वा इति तस्य भयं भवति। एवम् आयुक्तकेभ्यः आपत्, चोरेभ्यः आपत् जानीमः वयं, परेभ्यः, परेभ्यः नाम शत्रुभ्यः, राजवल्लभात् अपि आपत् भवति, नाम राज्ञः ये सन्ति अथवा प्रशासने ये गवर्नमेंट मध्ये ब्यूरोक्रेट्स भवन्ति अथवा उच्चपदव्यां ये भवन्ति तेषां प्रियजनाः भवन्ति किल, तैः सह अतिमैत्री अपि आपत् तर्हि भवेत्, शत्रुता अपि न करणीया भवेत्। कारणं ये राज्ञः सम्बन्धिनः अथवा प्रियजनाः तैः सह बहु मैत्रीं करोति चेत् कीदृश्यः आपदः भवितुम् अर्हन्ति, करप्शन् तादृशविषयाः भवति चेत् ते किं कुर्वन्ति, दुर्बलं पीडयन्ति, अतः तेभ्यः आपत् कदाचित् भवितुम् अर्हति। राज्ञः अथवा मन्त्रिणाम् उच्चपदवी पदव्यां विद्यमानानां जनानां मैत्री अथवा शत्रुता, एतद् उभयमपि अपायकरं भवितुम् अर्हति, सा एकविध आपद् भवति। अनन्तरं पृथिवीपति लोभः, राजा एव अथवा सर्वकारः एव अपहर्तुम् इच्छति चेत् कस्यचित् प्रजाजनस्य, तर्हि अपि नराणाम्, अतः आयुक्तकेभ्यः, चोरेभ्यः, शत्रुभ्यः, राजवल्लभात्, पृथिवीपतिलोभात् च नराणां पञ्चधा भवति। अतः पुरुषेण ततः आत्मरक्षणं करणीयम्। दैवी आपदः कथं रक्षणं भवति, प्रार्थना, पुण्यकार्यम् इत्यादिना। मनुष्यात् आपदः रक्षणमपि तथैव, अनन्तरं तेन जागरूकतया जीवनं निर्वहणीयं, धर्मपालनं करणीयं, न्यायपालनं करणीयं। न्यायपालनं क्रियते चेत् सः एतेभ्यः आपदः रक्षणं प्राप्नोति। किन्तु अत्र दिलीपः वदति, हे गुरो, मम प्रजाजनानां सर्व आपदः अपि निवारयिता, प्रतिहर्ता त्वमेव असि, अतः मम राज्ये सर्वमपि कुशलम् इति वदति। सकृत् श्लोकं पठित्वा अग्रिमं श्लोकं पश्यामः। उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्। अग्रिमं श्लोकं प्रति गच्छामः वा? इदानीं दिलीपः वदति, आपदः निवारणं तु गुरुः करोति, शत्रोः उपरि यदा आक्रमणं भवति, शत्रोः उपरि यदा पराक्रमः भवति, तत्रापि गुरुः एव तत्र कारणम् इति वदति दिलीपः। तव मन्त्रकृतो मन्त्रैः दूरात् प्रशमितारिभिः प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदशराः। पदच्छेदः तव मन्त्रकृतः मन्त्रैः दूरात् प्रशमितारिभिः यन्ते इव मे दृष्टलक्ष्यभिदः। अक्षराः। सः वदति हे गुरु तु साक्षात् शत्रूणाम् उपरि बाणानां प्रहारं करोमि अथवा लक्ष्यं प्रति मम बाणं प्रेषयामि। तद् तेन बाणेन शत्रोः नाशः शत्रुः नश्यति अथवा तस्य मरणं भवति। यः पश्यन् अस्ति सः चिन्तयति मम बाणात् एव सः हतः, किन्तु मम बाणेन एव शत्रुः हतः इति चिन्तयति, किन्तु वास्तविक कारणं तु भवानेव, यतः तव मन्त्रबलेन एव एतत् सर्वं सिद्ध्यति इति वदति। एतस्य अन्वयः एवम् अस्ति, प्रत्यादिश्यन्ते इत्युक्ते निराक्रियन्ते, निराकरणं प्रत्यादेशः। के प्रत्यादिश्यन्ते? शराः प्रत्यादिश्यन्ते। कस्य शराः? शराः नाम बाणाः, मे मम शराः। कीदृशाः ते शराः? दृष्टलक्ष्यभिदः शराः, यस्य लक्ष्यं भिन्दन्ति इत्युक्ते लक्ष्यस्य नाशं कुर्वन्ति, लक्ष्यं भिद्यन्ति, प्राप्नुवन्ति किल। साक्षात् लक्ष्यं धृत्वा यदा अर्जुनः बाणं प्रेषयति साक्षात् तत् सः बाणः लक्ष्यं गत्वा विध्यति, तथा मम शराणां लक्ष्यभेदनं दृश्यते, दृश्यमानमस्ति, तत् सर्वे द्रष्टुं शक्नुवन्ति। तादृशाः शराः, किन्तु किं वदति सः? दूरात् प्रशमितारिभिः मन्त्रकृतः तव मन्त्रैः मम शराः प्रत्यादिश्यन्ते, मम शराणां निराकरणं भवति। कैः निराकरणं भवति? तव मन्त्रैः, मन्त्रैः। अत्र हेतुः तृतीया, तव मन्त्राणां कारणेन। कस्य मन्त्रैः? तव। कीदृशस्य तव? मन्त्रकृतः तव, मन्त्रान् कृतवान् इति मन्त्रकृत्। भवान् मन्त्राणां प्रयोक्ता अस्ति, मन्त्रान् प्रयुङ्क्ते ऋषिः, मन्त्राणां तथा प्रयोगं करोति यत् मन्त्रेण सङ्कल्पमात्रेण कार्यं सिद्ध्यति, तथा न मनुष्येण सङ्कल्पं कृत्वा तत् तदर्थं कार्यमपि करणीयं भवति, किन्तु भगवतः विषये वा ऋषीणां विषये वा तथा न, ते सङ्कल्पमात्रेण एव कार्यं साधयन्ति। तव मन्त्रकृतः तव प्रशमितारिभिः शरैः, अरयः यैः शरैः, अरयः नाम शत्रवः, शत्रवः यैः बाणैः नष्टाः भवन्ति तादृशशरैः, प्रशमितारिभिः शरैः, दूरात् एव साधितं लक्ष्यं प्राप्तं, तर्हि मम बाणाः तत्र गत्वा पुनः पतन्ति चेत् तद् कीदृशं भवति इत्युक्ते मृतशरीरे बाणपतनमिव, पूर्वमेव भवता शत्रवः नाशिताः, तर्हि तेषु नष्टेषु शत्रूणां शव शरीरेषु मम बाणाः गत्वा पतन्ति, तर्हि अत्र भवतः मन्त्रस्य वैशिष्ट्यमेव इति दीपः वसिष्ठं निवेदयति। त्वत् मन्त्रसामर्थ्यात् एव अस्माकं पौरुष्यं फलति इति दिलीपः वदति। यदि रघुकुले सर्वे अपि पराक्रमिणः, सर्वेषां राज्ञामपि पौरुषम् अस्ति, तर्हि तद् केन कारणेन? कुलगुरोहो वसिष्ठस्य देव इति वदति। अत्र दिलीपः एवं वदति, हे गुरु, मन्त्रप्रयोक्ता अस्ति तर्हि मम बाणाः निष्प्रयोजनाः इव, मन्त्रबलात् परोक्षतया एव नश्यन्ति। मम शराः यत् प्रत्यक्षं लक्ष्यभेदनं कुर्वन्ति तत् पिष्टपेषणन्यायेन मृतेषु शत्रुशरीरेषु प्रहाराः इव निष्फलाः भवन्ति। पिष्टपेषणन्यायः इति जानीमः वयम्, अरच्चमावे अरेकर्द् इति तमिळ् भाषया वदामः। पूर्णमेव पिष्टीकृतं, तस्यैव पुनः पेषणं क्रियते चेत् तस्यैव पुनः करणं, मृतशरीरस्य उपरि बाणप्रहारेण किं दोषं, किन्तु तथा। तद्वत् उदाहरणं सः वदति, हे गुरो, तव मन्त्रसामर्थ्यात् एव अस्माकं रघुवंशजानां पौरुषं फलति इति वदति। प्रत्यादिश्यन्ते इति क्रियापदस्य अर्थः भवति निराक्रियन्ते, प्रति आदिश्यन्ते, दिश् धातु। अत्र विशेषणमेव यदि किञ्चित् वयं सावधानं पश्यामः तर्हि वयं श्लोकं सरलतया अवगन्तुं शक्नुमः। अत्र मन्त्रकृतः इति पदमस्ति, मन्त्रकृतः तव गुरुवसिष्ठस्य, मन्त्रकृतः तव षष्ठी विभक्ति, मन्त्रान् इति मन्त्रकृत् तस्य मन्त्रकृतः। अनन्तरं मन्त्रैः इति यत् विशेष्यपदमस्ति, संज्ञापदमस्ति, तस्य विशेषणपदं किमस्ति तृतीयायां, प्रशमितादिभिः मन्त्रैः, प्रशमिताः शत्रवः यैः बाणैः तैः मन्त्रैः, यैः मन्त्रैः तैः प्रशमितारिभिः मन्त्रैः। मन्त्रमात्रेण एव शत्रवः प्रशमिताः, अस्माकं तु बाणप्रयोगात् ते नश्यन्ति, भवतः मन्त्रप्रयोगेण एव ते नश्यन्ति। अनन्तरं शराः इति एक प्रथमा एकवचनान्तं, तस्य विशेषणमस्ति दृष्टलक्ष्यभिदः शराः। शरः इति एकवचनं, तस्य विशेषणपदं भवति दृष्टलक्ष्यभित्, भित् विधौ विदः, दृष्टलक्ष्यभिदः शराः। लक्ष्यं भिन्दन्ति, दृष्टं लक्ष्यं दृष्टलक्ष्यं, दृष्टलक्ष्यं भिन्दन्ति इति दृष्टलक्ष्यभिदः शराः। अतः षष्ठ्याम् एकविशेषपदम् एकविशेष्यपदम् एकविशेषणपदम्, तृतीयायाम् एकविशेष्यपदम् एकविशेषणपदम्, पुनः प्रथम बहुवचने एकविशेष्यपदम् एकविशेषणपदम्। तव मन्त्रकृतः प्रशमितारिभिः मन्त्रैः दृष्टलक्ष्यभिदः शराः इति त्रीणि विशेष्यविशेषणभावम् अवगच्छामः चेत् अत्र अन्वयः किञ्चित् सरलः भवति। पुनरेकवारम् एतं श्लोकं पश्यामः, तव मन्त्रकृतो मन्त्रैः दूरात् प्रशमितारिभिः प्रदाश्यन्त इव मे दृष्टलक्ष्यभिदशराः। अत्र सरलार्थः एवमस्ति, दिलीपः यदा बाणं मुञ्चति ततः पूर्वमेव शत्रवः कुलगुरोः वसिष्ठस्य मन्त्र उच्चारणेन एव मारिताः भवन्ति. तर्हि दिलीपस्य बाणाः कुत्र पतन्ति? ते मृतशरीरेषु पतन्ति इव इति उत्प्रेक्षणं दिलीपस्य. परन्तु अन्ये तत् न अवगच्छन्ति. जनाः चिन्तयन्ति सर्वं राज्ञः पराक्रमः इति, किन्तु वास्तविकतया गुरोः मन्त्रः एव तत्र क्रियते इति दिलीपस्य कथनस्य तात्पर्यम्. अग्रिमं श्लोकं द्रक्ष्यामः. द्विषष्टितमः श्लोकः. हविरावर्जितं होतः वृष्टिर्भवति सस्यानां अवग्रहविशोषिणाम्. अत्र पदच्छेदः हविः आवर्जितं होतः त्वया विधिवत् अग्निषु वृष्टिः भवति सस्यानाम् अवग्रहविशोषिणाम्. पूर्वं दिलीपः किम् उक्तवान्? दैवीनां मानुषीणाम् आपदां त्वम् असि गुरो इति उक्तवान् खलु. तस्य एव अग्रे इदानीं वर्णयति. कुलगुरुः दैवीनां मानुषीणाम् आपदां प्रतिहर्ता इति स्वस्य पूर्वतनकथनस्य एव करोति. इदानीम् अग्रे वदति. अत्र क्रियापदम् अध्याहृतं भवति, भवति इति श्लोके नास्ति. अध्याहार्यं भवति. किं भवति? हविः एव वृष्टिः भवति. हविः नाम किं? होमद्रव्यं हविः. कीदृशं हविः? आवर्जितम्. आवर्जितं तर्पितं त्यक्तम् अग्नौ आवर्जितं. कुत्र? अग्निषु, होमाग्निषु. होमाग्निषु हविः विसृज्यते, विधिवत् क्रियते, विधिपूर्वकं शास्त्रोक्तप्रकारेण क्रियते चेत्. केन तद् क्रियते? त्वया, हे ब्रो, तेन. तदेव हविः कथं भूतम् अस्ति इत्युक्ते वृष्टिः, वृष्टिः भवति. कथं हविः वृष्टिः भवति इत्युक्ते एव अग्नौ, अग्नितः यः धूमः भवति
श्रूयते.
आम्, किमपि न श्रूयते. एकनिमिषं तिष्ठतु.
Which is much more than
हेलो
भगिनी तिष्ठतु आगच्छति सा
श्रूयते वा
ओ हा श्रूयते सा आगच्छति तिष्ठतु
श्रूयते खलु पुनः आरम्भतः करणीयं वा अथवा यत्र त्यक्तं ततः एव
यत्र त्यक्तम् अतः थर्ड् 62 षष्टि द्विषष्टितम द्विषष्टि हविरावर्जितम्
सः दिलीपः वदति यत् आपदः कारणेन वृष्टेः प्रतिबन्धः भवति प्रतिबन्धः नाम अवरोधः वृष्टिः न भवति वृष्टि अभावः वृष्टेः अभावः भवति चेत् सस्यानां शोषणं भवति सस्यानि शुष्कानि भवन्ति धान्योत्पादनं न भवति तर्हि वृष्टिः भवति इदानीं हविर्दानं सम्यक् क्रियते चेत् यज्ञकार्येण तुष्टाः देवाः वृष्टिं वर्षयन्ति वृष्टिं यदा वर्षयन्ति तदा पुनः धान्यानां सम्यक् उत्पादनं भवति तेन यत् वृष्टिप्रतिबन्धः भवति तद् इदानीं न भवति सस्यानां पुनः वर्धनं भवति अवग्रहविशोषिणां वृष्टिप्रतिबन्धविशोषिणां सस्यानां
अवग्रह किं अर्थम्
अत्र प्रतिबन्धः
अवग्रहः
इत्युक्ते प्रतिबन्धः प्रतिरोधः ऑब्स्ट्रक्शन् अवग्रहविशोषिणः कस्याः अवग्रहः वृष्टेः कारणात् विशोषिणः ये सन्ति विशोषिणां विशोषिण्यः वृक्षाः शुष्यन्ति वृक्षाः सस्यानि शुष्यन्ति सस्यानां सस्यानि शुष्कानि भवन्ति तादृश प्रतिबन्धः निर्गच्छति अपगच्छति किल तद् अवरोधः अपगच्छति चेत् पुनः निर्बाधं वृष्टिः भवति तेन सस्यवर्धनमपि भवति एतस्य सरलार्थः एवम् अस्ति अन्वयः हे होतः हे अग्निहोत्रिन् हे यज्ञकर्तः इति वदति त्वया शास्त्रोक्तप्रकारेण अग्नौ विसृष्टं हविर्द्रव्यम् आवर्जितं नाम त्यक्तं विसृष्टं हविर्द्रव्यम् अवग्रहविशोषिणां सस्यानाम् अवग्रहविशोषिणां सस्यानाम् इत्युक्ते दैवी आपदः हेतोः या वृष्टिः पूर्वं प्रतिबद्धा आसीत् तस्याः वृष्टेः इदानीं प्रतिबन्धः निर्गतः इदानीं प्रतिबन्धः नास्ति वृष्टिः अस्ति
तस्मात् यानि सस्यानि शुष्कानि आसन् ता तेषां सस्यानां पुनः पुनर्जीवनं प्राप्य तानि सस्यानि वर्धन्ते, अतः वृष्टिः अपि भवति, वृष्टेः कारणेन सस्यानि वर्धन्ते। अतः हे हवनकर्तः, हे गुरो, यत् हवनीयं द्रव्यं त्वया शास्त्रोक्तप्रकारेण अग्नौ तर्पितं तदेव वृष्टिः, वृष्टेः अभावेन शुष्कं शुष्कदशां गच्छतां धान्यानां कृते सस्यानां कृते वृष्टिरूपं भवति। अतः त्वमेव दैवी आपद्या अस्ति, तस्याः निवारयिता इति अत्र एक उदाहरणरूपेण वदति। अन्याः दैव्यः आपदः अपि सन्ति, अत्र एकम् उदाहरणं दिलीपः वदति, काले वृष्टिः भवति, धान्यानाम् उत्पत्तिः भवति, प्रजाः जलसमस्यां विना तिष्ठन्ति, तेषां जीवनं सुष्ठु चलति प्रचलति चेत् तत्र तव नित्यं यज्ञकार्यमेव तत्र कारणम्। तत्र मनुस्मृतौ श्लोकः अस्ति, अग्नौ दत्ताहुतिः सम्यक् आदित्यम् उपतिष्ठते, आदित्यात् जायते वृष्टिः, वृष्टिरन्नं ततः प्रजाः इति। अग्नौ या आहुतिः दत्ता सा सम्यक् आदित्यम् उपसेवति उपतिष्ठते, नाम आदित्यस्य पूजनं भवति तेन, तेन द्रव्येण आदित्यस्य सेवा भवति, पूजनं भवति, तेन तृप्तः आदित्यः। सूर्यः किं करोति? आदित्यात् मेघाः भवन्ति, तेन वृष्टिः जायते, तया वृष्ट्या अन्नम् उत्पन्नं भवति, तस्मात् अन्नेन प्रजाः भवन्ति। समान अर्थः भगवद्गीता श्लोके अपि, अन्नात् भवन्ति भूतानि, पर्जन्यात् अन्नसम्भवः, यज्ञात् भवति पर्जन्यः, यज्ञः कर्मसमुद्भवः। अतः अत्र दिलीपः किं वदति इत्युक्ते, हे गुरो, तव नित्यनैमित्तिककर्माणि, यत् गुरुः अग्निकार्यं नित्यं करोति, तस्य शिष्याः तपोवने कुर्वन्ति, तेन अग्निकर्मणा एव अस्माकं राष्ट्रस्य रक्षणं भवति इति दिलीपः सूचयति। गुरु इतोपि एकं श्लोकम् अद्य कुर्मः, इतरश्लोकान् वयम् अग्रिमवर्गे कुर्मः। दिलीपः अग्रिमश्लोके गुरोः वसिष्ठस्य व्रताध्ययनस्य प्रभावं वर्णयति। अग्रे पुरुषायुषजीविन्यः निरातङ्का निरीतयः यन्मदीया प्रजा ब्रह्मवर्चसं। ब्रह्मवर्चसं नाम ब्रह्मतेजः, ब्रह्मशक्तिः। पुनः अग्रे समान अन्य आपदां विषये अपि वदति, दैव्यः आपदः भवन्ति, ताभ्यः आपदः अपि, हे गुरो, तव ब्रह्मतेजः एव अस्मान् ताभ्यः आपदः रक्षति इति वदति। पदच्छेदः पुरुषायुषजीविन्यः निरातङ्काः निरीतयः यत् मदीयाः प्रजाः, तस्य हेतुः त्वत् ब्रह्मवर्चसमेव। पूर्वं किमुक्तवान्? जलाभावात् या आपद् भवति तस्याः आपदः निवारणमपि हे गुरोः, हे गुरो, त्वमेव करोषि। कथं करोषि? तव नित्ययज्ञकारणेन, विधिवत् कृतं कृतः यज्ञः भवति, तेन कारणेन सम्यक् वृष्टिः भवति। तस्याः वृष्टेः हेतोः सस्यानाम् उत्पादनं सम्यक् भवति, तस्मात् प्रजाः सन्तुष्टाः भवन्ति। इदानीम् अन्यकारणानि, अन्य आपदां निवारणानि कथं भवन्ति इति सूचयति। मदीयाः प्रजाः मम प्रजाः यत् पुरुषायुषजीविन्यः निरातङ्काः निरीतयः च सन्ति तस्य हेतुः त्वद्ब्रह्मवर्चसमेव मदीयाः प्रजाः मम प्रजाः मदीयः इत्युक्ते मम मत्सम्बद्धाः भारतीयः इय इति प्रत्ययः भवति तद्धितप्रत्ययः विदेशीयः स्वदेशीयः तथैव मत् अस्मत्शब्दः अस्मदीयः मदीयः मदीयाः प्रजाः मम एते प्रजाः एताः प्रजाः यत् पुरुषायुषजीविन्यः भवन्ति नाम तेषां ते शतायुषः सन्ति शतायुषी भव इति वदति किल आयुः आयुः नाम जीवनकालं मनुष्यस्य आयुः किं शतं वर्षाणि इति तु प्रसिद्धं पुरुषस्य आयुः पुरुषायुषम् इति शतं वर्षाणि इति वर्षशतम् इति प्रसिद्धं तथा यत् शतं वर्षाणि यज्जीवन्ति पुरुषायुषजीविन्यः शतं वर्षाणि जीवितुं शीलं येषां मनुष्याणां ते पुरुषायुषजीविन्यः पुनः शतं वर्षाणि जीवेयुः किन्तु तत्र व्याधिः भवति जरा भवति तादृशपीडाः भवन्ति चेत् क्लेशः किल निरातङ्काः जरायाः अथवा व्याधेः भयं विना निरातङ्काः ते जीवेयुः चेत् तेषां जरा दुःख व्याधि इत्यादि न स्यात् तर्हि निरातङ्काः आतङ्कः नाम भयं निर्भयाः मम प्रजाः निर्भयाः तिष्ठन्ति निरीतयः अपि तिष्ठन्ति मम प्रजाः निरीतयः नाम अतिवृष्ट्यादिरहिताः सन्ति ईतयः इत्युक्ते पुनः आपदिव यत् राज्ये प्रायः एकग्रामे एकनगरे अथवा एकराजधान्यां सर्वे अपि यत्किमपि सामान्यं कष्टम् अनुभवन्ति तद् ईतिः इति भवति व्यक्तिशः कष्टम् अनुभवति चेत् ईतिः न भवति उदाहरणार्थम् एकस्मिन् गृहे कस्यचित् व्याधिः अस्ति नगरे अन्ये सर्वे कुशलिनः चेत् तद् ईतिः न सामान्यव्याधिः किन्तु ग्राममेव पीडयति कश्चित् व्याधिः तर्हि सः ईतिः भवति तादृश्यः ईतयः काः इत्युक्ते अतिवृष्टिः अनावृष्टिः मूषिकाः शलभाः शुकाः एताः अत्यासन्नाः च राजानः एते षट् ईतयः स्मृताः अतिवृष्टिः भवति सा एकप्रकारक अनावृष्टिः वृष्टेः अभावः मूषकाः किं कुर्वन्ति सस्यानि धान्यानि नाशयन्ति किल यदा धान्य आगारे धान्यानि स्थापयन्ति तत्र मूषकानां आधिक्यं भवति चेत् ते धान्यानि एव खादित्वा नाशयन्ति शलभाः अपि सस्यानि नाशयन्ति क्राप्स् तेषां नाशनं कुर्वन्ति शुकाः कथं नाशयन्ति किं जनानां कीदृशकष्टं जनयन्ति इति जानन्ति वा भवन्तः
सस्यानि खादति
ओहो शुकस्य अपि सा एव समस्या अस्तु अनन्तरम् अत्यासन्नाः राजानः शत्रु राजा राज्ञः अथवा राज्यस्य सीमा याः समीपे एव कुत्रचित् आगत्य शिबिरं कृत्वा आक्रमणं कर्तुं सिद्धः इति चेत् तदपि अपायकरः भवति किल राज्ञः कृते अतः अत्यासन्न राजानः एतत् ईतिः इति भवति मम प्रजाः निरीतयः सन्ति इत्युक्ते किम् तेषाम् ईतिभयमपि नास्ति आतङ्कम् अन्य चोरभयं वा व्याधिभयं वा तदपि नास्ति. अनन्तरं ते कीदृशाः सन्ति, शतं वर्षाणि पूर्ण आयुः जीवनं कुर्वन्ति. यदि एतत् सर्वं मम राज्ये सम्भवति तर्हि तत्र कारणं हे गुरो त्वमेव, तव ब्रह्मवर्चसमेव. ब्रह्मवर्चसम् इत्युक्ते तव ब्रह्मतेजः एव. यदि ब्रह्मतेजः क्षात्रतेजः एतत्ते उभयमपि भवति तदा एव समृद्धिशाली भवति देशः. ब्रह्मतेजः नाम राज्ञः पुरोहितः, राज्ञः कुलगुरुः, गुरवः, अध्यात्मगुरवः, सर्वे ते सम्यक् प्रजानां मार्गदर्शनं कुर्युः. क्षात्रतेजः सम्यक् प्रशासनं कुर्वन्ति, राष्ट्रस्य रक्षणं कुर्वन्ति, सैनिकाः, आरक्षकाः, एते सम्यक् कार्यं कुर्वन्ति चेत् तद् क्षात्रतेजः. ब्रह्मतेजः क्षात्रतेजः एतयोः द्वयोः अपि परस्परसमन्वयेन राज्यस्य सुष्ठु पालनं भवति. किन्तु अत्र दिलीपः वदति क्षात्रतेजसः अपेक्षया अपि ब्रह्मतेजसः एव अत्र श्रेष्ठत्वं, तव ब्रह्मतेजसा एव अस्माकं राष्ट्रस्य रक्षणं भवति, अस्माकं प्रजाजनाः सन्तुष्टाः सुखेन जीवन्ति इति ब्रह्मवर्चसं. ब्रह्मणः वर्चः, वर्चः नाम तेजः, शक्तिः, विगर् इति वदन्ति किल. भावार्थः भवति हे गुरो, मदीयाः प्रजाजनाः यदि शतवर्षजीविन्यः भवन्ति, भयरहिताः तिष्ठन्ति, अतिवृष्ट्यादि प्रकृतिप्रकोपेभ्यः रक्षिताः च भवन्ति, तर्हि तत्र हेतुः भवतः ब्रह्मवर्चः. ब्रह्मवर्चः, ब्रह्मतेजः इति वदामः, तद् कथं सम्पद्यते? व्रताध्ययनसम्पत् इति अस्ति. गुरुः, अनन्तरं ऋषयः, ऋषिकुमाराः, ते नित्यं व्रतम् अनुतिष्ठन्ति, अध्ययनं स्वाध्यायं कुर्वन्ति, वेदाध्ययनं कुर्वन्ति, यज्ञम् अनुतिष्ठन्ति. व्रताध्ययनमेव तेषां सम्पत्. अतः तेन अर्जितं यदस्ति तस्य एव तदेव ब्रह्मवर्चः इति उच्यते. नान्यत् किञ्चित् कारणमस्ति मम राज्यस्य सुखस्य कारणं तव ब्रह्मवर्चसः, कारणेन एव मम राज्यं सुखमयम् अस्ति इति दिलीपः वदति. त्वदीयेन ब्रह्मतेजसा अस्मत् क्षात्रतेजः रक्ष्यते इति दिलीपः कुलगुरु निवेदयति. एकवारम् एतं श्लोकम् अपि पठामः. आगामि वर्गे वयं विद्यमान इतरश्लोकानामपि पठनं कुर्मः.
अस्तु
अस्तु भगिनि.